नः पातु वो नित्यं जिनः परम शंकर नाथः परम शक्तिश्च शरण्यः सर्वकामदः सर्वविघ्नहरः स्वामी सर्वसिद्धि प्रदायकः सर्वसत्त्वहितो योगी श्रीकरः परमार्थपदः सर्वज्ञः सर्वदेवेशः सर्वदः सर्वगोत्तमः सर्वात्मा सर्वदर्शी च सर्वव्यापी जगद्गुरुः तत्त्वमूर्तिः परादित्यः परब्रह्म प्रकाशकः परमेन्दुः परप्राणः परमामृत सिद्धिदः
अजः सनातनः शंभूरीश्वरश्च सदाशिवः विश्वेश्वरः प्रमोदात्मा क्षीत्राधीशः शुभप्रदः साकाराश्च निराकारः सकलो निष्कलो व्ययः निर्ममो निर्विकाराश्च निर्विकल्पो निरामयः
अमराश्चाजरोऽनन्त एकोऽनेकः शिवात्मकः अलक्ष्यश्च प्रमेयश्च ध्यानलक्ष्यो निरञ्जनः ओङ्काराकृतिर्व्यक्तो व्यक्तरूपस्त्रयामयः ब्रह्मत्वया प्रकाशात्मा निर्भयः
दिव्यतेजोमयः शान्तः परामृतमयोच्युतः आद्यो नाद्यः परेशानः परमेष्टि परः पुमान् शुद्ध स्फटिक सङ्काशः स्वम्भूः परमाच्युतः व्योमाकार स्वरूपश्च
ज्ञानात्मा परमानन्दः प्राणारूढो मनःस्थितिः मनः साध्यो मनोध्येयो मनोदृश्यः परापरः सर्वतीर्थमयो नित्यः सर्वदेवमयः प्रभुः भगवान् सर्वतत्त्वेशः शिव श्री सौख्यदायकः
इति श्री पा